अस्तु, तर्हि इदानीम् अस्माकं विषयः अस्ति स्मृतिः इति. स्मृतेः लक्षणवाक्यं किम् इति वयं पूर्वं परिशीलितवन्तः. तत्र किञ्चित् मात्रपदस्य विषये अपि किञ्चित् विस्तारेण अवलोकितवन्तः. तत्र कोऽपि संक्षेपेण वक्तुं शक्नोति वा, प्रायः निमिषद्वयात् वा त्रयात् वा, तत्र मात्रपदस्य आवश्यकता का इति? विद्याशङ्करमहोदय, भवान् वदति वा?
अस्तु भगिनि. संस्कारमात्रजन्य ज्ञानं स्मृतिः इति लक्षणवाक्ये दलत्रयं तत्र अस्ति. संस्कारजन्यत्वम् इति एकं, संस्कारमात्र जन्यत्वम् इति वदनेन संस्कारभिन्न इन्द्रियेण वा प्रमाणेन अजन्यत्वं तदपि स्मृतौ अस्ति. तृतीयं ज्ञानत्वम् इति अपि स्मृतौ अस्ति इति दलत्रयं लक्षणवाक्येन साधितं. तर्हि वर्गे किमर्थं दलत्रयं तत्र सार्थक्यं किम् इति दृष्टवन्तः. तत्र संस्कारजन्यत्वं मात्र संस्कारजन्यत्वं केवलम् इति वदनेन संस्कारध्वंसे अतिव्याप्तिः भवति. इत्युक्ते संस्कारध्वंसः यद्भवति, यत्र घटध्वंसः यद्भवति, तत्र घटस्य अपि कारणमस्ति, तथा एव संस्कारध्वंसं प्रति संस्कारमपि कारणं. तस्मात् संस्कारजन्यत्वम् एव लक्षणम् इति वदनेन संस्कारध्वंसे अतिव्याप्तिः इति आगच्छति. इत्यपि द्वितीयदलमासीत् संस्कारमात्रजन्यत्वं, क्षम्यतां, संस्कार अजन्यत्वम् इति स्वीकुर्मः चेत् तत्र प्रत्यपि
संस्कारभिन्न अजन्यत्वं खलु तृतीयदलम् इति.
क्षम्यतां, संस्कारभिन्न अजन्यत्वम् इति स्वीकुर्मः चेत् तत्र आकाशादौ अपि अतिव्याप्तिः भवति. किमर्थम् इत्युक्ते आकाशः अपि विभू द्रव्यं, तस्मिन्नपि संस्कारभिन्न अजन्यत्वम् अस्ति. तदर्थं संस्कारभिन्न अजन्यत्वं केवलं दलमिति न भवितुमर्हति इति दलद्वयं. तृतीयं दलमासीत् ज्ञानत्वं. संस्कारं ज्ञानम् इति वदामः चेत् तत्र अनुभवम् इति ज्ञानम् अस्ति, तदर्थं तत्रापि अनुभवे अतिव्याप्तिः भवति. तदर्थं दलत्रयमपि अवश्यम् इति अवलोकितम्. अपि उक्तं तत्र यत्र वदामः अतिव्याप्तिः आकाशे, अतिव्याप्तिः अनुभवे, तत्र अतिव्याप्तिः न आकाश, वस्तुतः आकाशेन अतिव्याप्तिः, लक्षणवाक्ये आकाशमादाय अतिव्याप्तिः इति. लक्षणवाक्ये संस्कारजन्यत्वम् इति वदामः चेत् तत्र संस्कारध्वंसं स्वीकृत्य लक्षणवाक्ये अतिव्याप्तिः इति अपि उक्तम्. अपि च दलद्वयं स्वीकुर्मः चेत् इत्युक्ते संस्कारजन्यत्वं, संस्कारभिन्न अजन्यत्वम् इति स्वीकुर्मः चेत् संस्कारध्वंसे अतिव्याप्तिः भवति. संस्कारजन्यत्वं ज्ञानत्वम् इति दलद्वयं स्वीकुर्मः चेत् प्रति अभिज्ञाने अतिव्याप्तिः भवति. अपि संस्कारभिन्न अजन्यत्वं ज्ञानत्वम् इति स्वीकुर्मः, दलं स्वीकुर्मः चेत् ईश्वरस्य ज्ञाने अतिव्याप्तिः आगच्छति. तदर्थं दलत्रयमपि अपेक्षितम् इति पर्यवर्ति.
बहु स्पष्टं महोदय, धन्यवादः. तर्हि अत्र यथा महोदयेन उक्तं, तत्र प्रति अभिज्ञायां यः अतिव्याप्तिः भवति तस्य इतोपि किञ्चित् अवगमनार्थं प्रति अभिज्ञा इत्युक्ते का इति इदानीं वयं किञ्चित् परिशीलयामः. तत्र पूर्वं दृष्टस्य पुरतः विद्यमाने अभेदः अवगाहि ज्ञानम् इति प्रत्यभिज्ञा. पुनः एकवारं वदामि, पूर्वं दृष्टस्य पुरतः विद्यमाने अभेद अवगाहि ज्ञानं प्रत्यभिज्ञा इति प्रत्यभिज्ञायाः स्वरूपं. तस्मिन् विषये अद्य किञ्चित् परिशीलयामः. तत्पूर्वं यत् गतसप्ताहे पठितं तस्मिन् किमपि प्रश्नः अस्ति वा, तत्र प्रश्नः अथवा संशयः अस्ति चेत् इदानीं किञ्चित् तस्य चर्चां कृत्वा अग्रे गन्तुं शक्नुमः. अस्तु भवतु तर्हि राजेन्द्रमहोदय भवान् आरम्भं करोति वा?
आम् आम् आं भगिनि भगिनि इदानीं यथा या वाक्यं यः या उक्तवती किम् किम् अस्ति अस्ति अत्र पुस्तके अस्ति वा विद्याधर्यां?
न महोदय, महोदयेन अस्माकं शनिवासरकक्षायाम् उक्तम् आसीत् एतत् वाक्यं, तदर्थमेव अहम् अत्र उक्तवती. अग्रे पठेम, प्रायः तेन तस्य स्पष्टीकरणमपि भवेत्.
अहं शनिवासरे तत् किञ्चित् अर्धघण्टात्मक पूर्वमेव तत्र गतवान्, तथा प्रायशः मया न श्रुतम्.
चिन्ता नास्ति. अन्य कोऽपि प्रश्नः आसीत् वा?
हा भगिनी, तर्हि पुस्तके तद् वाक्यं नास्ति चेत् कृपया पुनरेकवारं वदति वा?
हा निश्चयेन. पूर्वं दृष्टस्य पुरतः विद्यमाने अभेद अवगाहि ज्ञानं प्रत्यभिज्ञा. अपि च पुस्तके अनन्तरम् आगच्छति वा इति न जानामि, एतावत्पर्यन्तं प्रायः न पठितवन्तः स्यात्.
पूर्वं दृष्टे पुरतः विद्यमाने अवेदज्ञानम् इति
अवेद अवगाहि ज्ञानं प्रत्यभिज्ञा.
अस्तु भगिनि,
धन्यवादः. इत्युक्ते ज्ञानस्य एकविधं ज्ञानम् एव न वा?
हा, प्रत्यभिज्ञा इति एकविधं ज्ञानमेव. इत्युक्ते प्रत्यभिज्ञायां तत्र संस्कारः अपि च प्रत्यक्षं, द्वयोः अपि संयोजनं भवति खलु. तदेव तत्र प्रत्यभिज्ञा अपि च स्मृतेः भेदः इति अपि वयं किञ्चित् संक्षिप्तरूपेण पूर्वं दृष्टवन्तः. तस्य एव अद्य प्रायः इतोपि किञ्चित् विवरणं भविष्यति.
इत्युक्ते एतावता अनुभवज्ञानं, स्मृतिज्ञानं, इदानीं प्रत्यभिज्ञानम् इति ज्ञानत्रयम् उक्तं पुस्तके.
सत्यम्. अपि च यथार्थज्ञानम् इत्यपि तत्र, इत्युक्ते बृहान् प्रभेदः खलु, तदेव तस्मात् एव आरम्भं कृतवन्तः.
स्मृति अपि ज्ञानमस्ति भगिनि.
हा, महोदयेन उक्तं खलु स्मृतिः इति. हा, पठतु महोदय. धन्यवादः.
अस्तु भगिनि. प्रत्यभिज्ञास्वरूपवर्णनं संस्कारजन्यत्वे सति ज्ञानत्वं तो अयं चेत्रः इति आकार आकारकप्रत्यभिज्ञायाम् अतिव्याप्तम् प्रत्यभिज्ञा प्रत्यक्षविशेषः संस्कारसहकृतेन इन्द्रियेण जायमानः. तथा हि एतावता वर्णितेषु प्रत्यक्षेषु इन्द्रियाणाम् एव व्यापारः, सन्निकर्षः, संयोगः, संयुक्तसमवाय समवाय आदिः. घटसंयुक्तस्य चक्षुरिन्द्रियस्य रूपादिभिः संयुक्तसमवायः वक्ष्यमाणः सन्निकर्षः, न हि तत्र संस्कारस्य उपयोगः. तत्र घटप्रत्यक्षे केवलम् इन्द्रियं व्याप्रियते प्रवर्तते. प्रत्यभिज्ञायां तु संस्कारसहकृत् कृतम् इन्द्रियं तत् ज्ञानस्य आकारः भवति सो अयं चैत्रः इति. तत्र द्वौ भागौ स्तः, सः इत्येकः, अयम् इति अपरः. अस्तु भगिनि, पुनः पठित्वा
कण्ठशः पठित्वा प्रतिपादयतु महोदय.
संस्कारजन्यत्वे सति ज्ञानत्वं सो अयं चैत्रः इति आकारप्रत्यभिज्ञानम् अतिव्याप्तं. संस्कारेण भवति ज्ञानं. यथा वदामः सो अयं चैत्रः, तत् ज्ञानं, तत् आकारः, शब्दस्वरूपः प्रत्यभिज्ञायां कथम् अतिव्याप्तं भगिनि? अत्र किञ्चित् क्लेशः.
तत्र पश्यतु महोदय, अत्र संस्कारजन्यत्वे सति ज्ञानं इति अस्ति खलु, ज्ञानत्वं. तत्र दल तत्र कति दलानि सन्ति अस्मिन् वाक्ये संस्कारजन्यत्वे सति ज्ञानत्वम् इत्यत्र?
दलद्वयं.
इत्युक्ते संस्कारेण जन्यं ज्ञानम् इति संस्कारजन्यं ज्ञानम् इति अस्ति खलु, तर्हि यः यद् ज्ञानं संस्कारेण जायते तत् इत्युक्ते तत्र स्मृतिलक्षणे केवलं संस्कारजन्यत्वे सति ज्ञानत्वम् इति अस्ति चेत् इत्युक्ते मात्रपदं नास्ति चेत् तर्हि तत्र दलद्वयमेव भवति, यथा तथा दलद्वयमेव भवति तर्हि सो अयं देवदत्तः इति आकारेण यः प्रत्यभिज्ञानज्ञानं भवति तस्मिन् अतिव्याप्तिः भवति इति, इत्युक्ते प्रत्यभिज्ञा अपि संस्कारेण जायमानं ज्ञानं, स्मृतिः अपि तथा, तर्हि केवलं संस्कारजन्यत्वे सति ज्ञानत्वम् इति वदामः चेत् स्मृतिलक्षणे प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति।
अस्तु, धन्यवादः भगिनि। आमाम् इदानीं स्पष्टं भवति। यथा अत्र यत् वाक्यमस्ति तत्र तत्र मातृपदं न उपयोजयामः, तत् कारणात् ज्ञानं कृते अतिव्याप्तिः भवति यथा वदामः।
इत्युक्ते यथा विद्याशङ्करमहोदयेन उक्तं खलु आरम्भे, इत्युक्ते मातृपदेन किं भवति, मातृपदेन संस्कारजन्यत्वं भवति अपि च संस्कारभिन्न अजन्यत्वम् अपि भवति। तर्हि अत्र केवलं संस्कारजन्यत्वम् इति अस्ति चेत् प्रत्यभिज्ञा अपि तथा, प्रत्यभिज्ञापि संस्कारेण जायमानं ज्ञानं, तर्हि तस्मिन् तदपि भवतु इति आपतति खलु, तर्हि तत्र अतिव्याप्तिः आगच्छति इति एव।
धन्यवादः। प्रत्यभिज्ञा प्रत्यक्षविशेषः संस्कारसहकृतेन इन्द्रियेण जायमानः, प्रत्यभिज्ञात् विशेषप्रकारक ज्ञानम् अस्ति यः संस्कारेण सह कृतः इन्द्रियेण जायमानः भवति। प्रत्यक्षं तु इन्द्रियेण जायमानः भवति, अभिज्ञाज्ञानं यत् अस्ति तत् प्रत्यक्षविशेषः अस्ति, यथोपि तत्र संस्कारसह कृतः न केवलं प्रत्यक्षं परन्तु अपि तु संस्कार सः कृतः ज्ञानः जनयति आज्ञानः प्रत्यभिज्ञा एवं वा भगिनि?
हा सत्यं, तत्र संस्कारसः कृतः इत्युक्ते किं,
यदा तत्र यदा वदामः सो अयं चैत्रः यथा वदामः तत्तु सः अयं तत् पूर्वं यः यं दृष्टवान् स्मः तत् संस्कारेण तत्र आगच्छति, इदानीं तु प्रत्यक्षरूपेण तत् चैत्रं दृष्ट्वा वदामः सो सः एव चैत्रः अत्र अस्ति यं पूर्वं दृष्टवान्।
हा सत्यम्, इत्युक्ते तत्र प्रत्यभिज्ञा इति ज्ञानं तत्र केवलं प्रत्यक्षेन जायते इति ज्ञा, तत्र संस्कारस्य तत्र सहकृतः इत्युक्ते संस्कारस्य तत्र उपयोगः अपि भवति खलु, इत्युक्ते संस्कारः अस्ति इति कृत्वा इदानीं यदा प्रत्यक्षेन तत्र चैत्रं पश्यामः चेत् तत्र वयं ज्ञातुं शक्नुमः, ओहो पूर्वं यः चैत्रः मया दृष्टः सः एव इदानीं मम पुरतः अस्ति इति, तर्हि तत्र केवलं तदर्थमेव तत्र प्रत्यक्षविशेषः इन्द्रियेण जायते संस्कारसहकृतेन इति अस्ति, इत्युक्ते संस्कारस्य साहाय्येन इन्द्रियद्वारा इत्युक्ते संस्कारः अपि च प्रत्यक्षं द्वयोः अपि मेलनेन यः ज्ञानं भवति तदेव प्रत्यभिज्ञा इति।
तथा हि एतावता वर्णेषु प्रत्यक्षेषु इन्द्रियाणाम् एव व्यापारः सन्निकर्षात् संयोगः सम्यक् समवाय आदिः एतावता यथा यत् यः प्रत्यक्षविशेष ज्ञानम् अस्ति प्रत्यक्षविशेषः अस्ति यत्र संस्कारेण सह प्रत्यक्ष ज्ञानं जनयति तस्मिन् इन्द्रियं तस्मिन् तु इन्द्रियेण इन्द्रियाणाम् एव व्यापारः सः तु इन्द्रियाणाम् एव व्यापारः अस्ति यत् सन्निकर्षः यथा तत्र चक्षु इन्द्रिय तत्र गत्वा सन् यत्किमपि पदार्थ निकर्षः गत्वा तत्र संयोग तेन सह संयोगः भवति अतः संयुक्तसमवाय आदि ते सर्वे सम्बन्धाः तत्र भवन्ति तत् किञ्चित् भगिनी सहायं करोति अत्र
हा 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 निश्चयेन तत्र अन्य कोऽपि किञ्चित् वक्तुं शक्नोति वा अस्मिन् विषये तत्र विद्याशङ्करमहोदय भवान् वदति वा
तथा हि तस्मिन् वाक्ये एव तत्र एतावत् प्रत्यक्षज्ञानं स्थले किं किम् अवलोकितम् चक्षुरिन्द्रियं घ्राणेन्द्रियं स्वगेन्द्रियं श्रोत्रेन्द्रियं किं जिह्वेन्द्रियम् इति इन्द्रियाणां व्यापारः प्रत्यक्षज्ञाने दृष्टं तत्र व्यापारः भवति इत्युक्ते चक्षु इन्द्रियज्ञानस्थले चक्षुः घटेन सह सन्निकर्षः व्यापारः भवति संयोगः भवति तथा संयोगः व्यापारः
न क्षम्य एकक्षणं क्षम्यता महोदय तत्र व्यापारः इत्युक्ते किं
व्यापारः इत्युक्ते कारणात् जायते कार्यं च जनयति इति व्यापारः
हा हा तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारः
तत्र चक्षुघटयोः संयोग तद्व्यापारः न वा
हा तत्र हा हा सत्यं तर्हि तत्र सन्निकर्षः इति व्यापारः खलु
सन्निकर्षः व्यापारः यथा संयोगः संयुक्तसमवायादिः संयोगः इति चक्षुघटयोः इति संयोगः संयुक्तसमवाय इत्युक्ते तत्र घटे रूपम् अस्ति स च रूपं घटे समवायेन अस्ति घटः संयोगेन चक्षुघटयोः संयोगेन घटस्य प्रत्यक्षज्ञानं घटे यद् रूपम् अस्ति तद् ज्ञानं संयुक्तसमवायादि व्यापारेण भवति
हा हा संयुक्तसमवायिसम्बन्धेन भवति खलु इत्युक्ते तत्र राजेन्द्रमहोदय तत्र चक्षुः विषये वस्तुतः किञ्चित् वैलक्षण्यम् अस्ति खलु यतोहि वयं पूर्वमपि दृष्टवन्तः चक्षुः इत्यत्र चक्षुः वस्तुतः चक्षुषः हा
बहिः गत्वा
सत्यं चक्षुः इन्द्रियतः तत्र प्रकाशः इति कश्चन बहिर्गत्वा घटेन सह संयोगः भवति खलु तर्हि इदानीं यदा वयं घटः पश्यामः घटं पश्यामः तत्र संयोगेन तस्य तत्र सम्बन्धः अस्ति संयोगसम्बन्धः यतोहि तत्र चक्षुघटयोः संयोगसम्बन्धः अस्ति परन्तु घटे विद्यमानं रूपं केन सम्बन्धेन इदानीं इत्युक्ते रूपं घटे केन सम्बन्धेन अस्ति
रूपं तु समवायसम्बन्धेन घटे अस्ति
हा
रूपं घटे समवायसम्बन्धेन अस्ति
हा रूपं घटे समवायसम्बन्धेन अस्ति इदानीं घटः अपि च चक्षुः इति संयोगसम्बन्धः अस्ति खलु तर्हि चक्षुरूपयोः मध्ये कीदृशसम्बन्धः
संयुक्तसमवायसम्बन्धः
हा सत्य संयुक्तसमवायसम्बन्धः तर्हि रूपम् इति संयुक्तसमवायि अस्ति खलु अस्तु इत्येव अस्तु
भगिनि तत्र संयोगः केवलं द्रव्ययोः मध्ये भवति किन्तु रूपं तत् गुणस्य चक्षुरिन्द्रियेण सह संयोगः भवति तदर्थम् अत्र संयुक्तसमवायसम्बन्धः इति न वा कथा अस्ति
तदपि अस्ति इति चिन्तयामि यतोहि वस्तुतः तत्र गुणद्रव्ययोः मध्ये समवायसम्बन्धः इति अस्माभिः पूर्वम् अवलोकितम् अपि च इदानीं रूपम् इति गुणः चक्षौ साक्षात् नास्ति खलु इत्युक्ते तथा अस्ति चेत् तत्र समवायसम्बन्धः भवितुम् अर्हति, परन्तु इदानीं घटे अस्ति, घटरूपयोः मध्ये तु समवायसम्बन्धः, चक्षुघटयोः मध्ये संयोगसम्बन्धः, तर्हि परम्परासम्बन्धेनैव चक्षुरूपयोः सम्बन्धः करणीयः खलु? तर्हि अग्रे महोदय भवानेव पठतु.
अस्तु, घटसंयुक्तस्य चक्षुरेन्द्रियस्य रूपादिभिः संयुक्तसमवायः वक्ष्यमाणः सन्निकर्षः. इदानीमेव दृष्टं घटसंयुक्तः घटेन सह चक्षुरेन्द्रियस्य संयोगः घटसंयुक्तस्य चक्षुरेन्द्रियस्य रूपादिभिः संयुक्तसमवायः वक्ष्यमाणः सन्निकर्षः. सन्निकर्षः इत्युक्ते किम्? यथा घटेन संयुक्त घटेन चक्षुघटयोः संयोगः तयोः रूपादिभिः, रूप इति गुणादिभिः कथं सन्निकर्षः कथं भवति? संयुक्तसमवायः इति सन्निकर्षः. तत्र तादृशव्यापारः सन्निकर्षः रूपादिभिः गुणे गुणविषये.
इत्युक्ते तत्र हा सत्यम्, इत्युक्ते इन्द्रियसन्निकर्षेण एव तत्र प्रत्यक्षज्ञानं भवति इति वयं पूर्वं दृष्टवन्तः खलु. तर्हि तत्र सन्निकर्षः भिन्नभिन्नसम्बन्धेन भवति, इत्युक्ते घटः अस्ति चेत् तत्र साक्षात् संयोगः इति सन्निकर्षः भवति, घटे विद्यमानं रूपम् इति अस्ति चेत् तत्र संयुक्तसमवायः इति एव.
नहि तत्र संस्कारस्य योगः इति घटप्रत्यक्षज्ञानं यत् यत् अस्ति तत्र संस्कारस्य किमपि पात्रः नास्ति, कार्यं नास्ति. केवलं चक्षुरिन्द्रियं घटः तत्र संयोगः सन्निकर्षः संयोगः वा संयुक्तसमवायः वा इति एव. तत्र घटप्रत्यक्षे केवलम् इन्द्रियं व्याप्रियते प्रवर्तते, इत्युक्ते घटप्रत्यक्षज्ञाने केवलम् इन्द्रियस्य कारणत्वं न अन्य न किम् इदानीं किं न अन्यत् किम्? इन्द्रियमेव व्याप्रियते प्रवर्तते इत्यपि ज्ञायां तु संस्कारसहृतम् इन्द्रियम्. अन्यस्मिन् पक्षे प्रति अभिज्ञा यत् ज्ञानम् अस्ति तत्र न केवलम् इन्द्रियं संस्कारसहकृतम् इन्द्रियम् इत्युक्ते संस्कारेण अपि च इन्द्रियेण मिलित्वा तयोः सहायं कृते यत् ज्ञानं भवति तत् प्रति अभिज्ञा तद् ज्ञान आकार.
क्षम्यतां महोदय, तत्र अस्मिन् अन्यस्मिन् पक्षे इति वस्तुतः न, इत्युक्ते प्रत्यक्षस्य प्रत्यक्षज्ञानप्रसङ्गे तु तत्र केवलं व्याप्रियते इत्युक्ते प्रवर्तते इत्येव. इत्युक्ते तस्मिन् पक्षे प्रत्यक्षज्ञानं यदा भवति तत्र केवलम् इन्द्रियेण एव जायमानं ज्ञानम् अस्ति प्रत्यक्षम् इति प्रत्यक्षज्ञानं. परन्तु यदा प्रत्यभिज्ञा इति भवति तत्र केवलम् इन्द्रियम् इति न, इन्द्रियेण सह संस्कारस्य अपि तत्र कार्यमस्ति.
तज्ज्ञानस्य आकारः भवति सो अयं चयकः इति. तद् प्रत्यभिज्ञा यत् अस्ति यत् संस्कारकृतम् इन्द्रियेण जायमानं ज्ञानं ज्ञानस्य आकारः शब्दप्रयोगं भवति सो अयं चैत्रः इति ज्ञानेन ज्ञानं प्रकटं भवति. तत्र द्वौ भागौ स्तः, सः इति एकः, अयम् इति अपरः. सोऽयं चैत्रः इति ज्ञाने सः इति एकभागम् अयम् इति अपरभागम् अस्ति तस्मिन् ज्ञान आकारे.
धन्यवादः महोदय. अपि च अन्य कोऽपि आगतवान् वा मध्ये? यस्य नाम पार्श्वे नास्ति.
भगिनी जयन्ती अस्मि.
ओ नमस्ते भगिनि.
नमस्ते
भगिनी. एकः प्रश्नः अस्ति, सन्निकर्षव्यापार एकम् अस्ति द्वयोः सम्बन्धस्य नाम अस्ति.
हा हा, व्यापारः इत्युक्ते तत्र वयं पूर्वं दृष्टवन्तः खलु, व्यापारः इत्युक्ते यः मध्ये इत्युक्ते घटनिर्माणस्य प्रसङ्गे अपि वयं दृष्टवन्तः तत्र दण्डः भ्रमणम् इति तत्र यदा तत्र भ्रमणम् इति व्यापारः यतोहि तत्र घटेन जायते क्षम्यतां दण्डेन जायते घटं जनयति इति कृत्वा तदेव अस्ति व्यापारः तत्र प्रत्यक्षज्ञानप्रसङ्गे सन्निकर्षः इति व्यापारः भवति
अस्तु
अस्तु तर्हि अग्रे सन्ध्या भगिनी भवती पठति वा तत्र चित्रं किञ्चित् चित्रस्य विषये उक्त्वा अग्रे
अस्तु तर्हि तत्र चित्रे तद्देशकालविशिष्टः सः चैत्रः अनन्तरम् एतद्देशकालविशिष्टः अयम् इति चैत्रः तर्हि चैत्रः इति या कापि व्यक्तिः अस्ति तां दृष्ट्वा तत्र किं ज्ञानम् इति ज्ञानस्य आकारः द्वयं द्विधा भवति सः इति एकम् अयम् इति एकं यथा वयं दृष्टवन्तः सः तर्हि तत्र सः इति सः चैत्रः इति यः आकारः अस्ति ज्ञानस्य यः भागः अस्ति तदस्ति यत् पूर्वं दृष्टं तस्य विषये तदस्ति तद्देशकालविषये विशिष्टः इति तर्हि अपरस्मिन् काले अपरस्मिन् देशे यत्किमपि ज्ञानं जातं तस्य ज्ञानस्य आकारः सः चैत्रः इति अनन्तरम् इदानीन्तनदेशकालयोः यत्किमपि ज्ञानं जायते तस्य आकारः अयं चैत्रः इति समीचीनं वा
हा आं भगिनि
अस्तु अग्रे पठामि विष्णुगुप्तेन पाटलीपुत्रे कार्तिकमासि चैत्रः अवलोकितः तदानीं प्रत्यक्षं कीदृशं भवेत् चैत्रः सम्प्रति कार्तिकमासि इह पाटलीपुत्रे अस्ति प्रत्यक्षेऽस्मिन् चैत्रः विशेष्यविधया भासते तस्मिन् कार्तिकमासनिष्ठत्वं पाटलीपुत्रनिष्ठत्वं च प्रकारविधया भासते तर्हि चैत्रः इदानीम् उपरि यद् चित्रमस्ति तस्मिन् चैत्रः यः अस्ति सः चैत्रः विष्णुगुप्तः इति तं चैत्रं विष्णुगुप्तः इति कश्चन अपरः जनः पाटलीपुत्रे इत्यस्मिन् देशे अपि कार्तिकमासि इत्यस्मिन् काले सः दृष्टवान् अस्ति तदानीं यदा दृष्टवान् तत्समये कीदृशं तत्र प्रत्यक्षम् अस्ति इत्युक्ते चैत्रः सम्प्रति कार्तिकमासे इह पाटलीपुत्रे अस्ति तर्हि अधुना अस्मिन् पाटलीपुत्रे अस्मिन् समये कार्तिकमासि चैत्रः अस्ति इति तत्समयस्य ज्ञानम् प्रत्यक्षस्मिन् चैत्रः विशेष्यविधया भासते इत्युक्ते चैत्रः अस्मिन् ज्ञाने चैत्रः इति विशेष्यम् अस्ति इति वा अस्तु तस्मिन् कार्तिकमासनिष्ठत्वं पाटलीपुत्रनिष्ठत्वं च प्रकारविधया भासते अस्तु तर्हि विशेष्यं चैत्रः अस्ति तर्हि चैत्रे कार्तिकमासनिष्ठत्वम् अपि च पाटलीपुत्रनिष्ठत्वम् अस्ति इति कृत्वा कार्तिकमासनिष्ठपाटलीपुत्रनिष्ठचैत्रः इति एकप्रकारकं ज्ञानं भवति इति भासते मम समीचीनं वा तद्
हा सम्यक् भगिनि अत्र वस्तुतः विषयद्वयं महोदयेन उक्तं यदहं स्मरामि तद् वदामि जयन्ती भगिनी तत्र यथा तत्र मध्ये किमपि अन्यत् वक्तव्यं चेत् निश्चयेन वदतु तत्र कार्तिकमासि इति अस्ति खलु तत्र मासि इति सप्तमी अन्तपदम् अस्ति वस्तुतः तत्र मासः इति अकारान्तपुल्लिङ्गपदमेव तर्हि मासे इति एव भवेत् मासि इति किमर्थम् इति महोदयेन पृष्टं कोऽपि जानन्ति वा जानाति वा
तत्र मास् इति तत्र सकारान्त हलन्तपदम् इति कृत्वा तथा लिखितम् अस्ति, तद्विहाय इतोपि अस्ति वा?
अत्र महोदयेन उक्तं तत्र वस्तुतः मास् इति सकारान्तपदम् अस्ति वा इति न जानामि, परन्तु वस्तुतः मासः इति पदस्य एव तत्र द्वितीया बहुवचनात् आरभ्य तत्र किञ्चित् भिन्नरूपम् अपि अस्ति, इत्युक्ते सकारान्त पुल्लिङ्ग पदम् इव भिन्नरूपम् अपि अस्ति तत्र. किमपि सूत्रमस्ति यद् महोदयेन न उक्तं, परन्तु बृहत् सूत्रमस्ति इति कृत्वा तत्र मास् इति मासि इति सप्तमी अन्तरूपं भवति इति उक्तवान् इति एकं. द्वितीयम् अस्ति अत्र पश्यामः चेत् वस्तुतः तत्र चैत्रः इति विशेष्यं पाटलीपुत्र पुत्रनिष्ठत्वं कार्तिकमासनिष्ठत्वम् इति विशेषणं खलु, तदर्थमेव तत्र तत्प्रकारता तत्र ज्ञानस्य प्रकारता इति अस्ति, अत्र तु विशेष्यता इति अस्ति. साधारणतया यदा वयं पूर्वं दृष्टवन्तः तत्र उन्नतः बालकः इति अस्ति चेत् तत्र बालकः इति विशेष्यम्, उन्नतः इति विशेषणं, बालके औन्नत्यम् अस्ति इत्युक्ते बालकः इति आधारः भवति खलु, अपि च विशेषणं तत्र यः बालकः अस्ति आधारः अस्ति तस्मिन् अस्ति. परन्तु अत्र पश्यामः चेत् विपरीततया अस्ति खलु, इत्युक्ते कार्तिकमासे चैत्रः अस्ति अपि च पाटलीपुत्रे चैत्रः अस्ति, इत्युक्ते चैत्रे पाटलीपुत्रत्वम् इति नास्ति, परन्तु पाटलीपुत्रे चैत्रः अस्ति. तर्हि तत्र आधार आदेयभावः विपरीत दिश्याम् अस्ति इत्यपि किञ्चित् वैशिष्ट्यम् अस्ति इति महोदयेन उक्तं. तत्र केवलं तत्र वक्तव्यम् आसीत् तावदेव.
आहत्य अत्र ज्ञाने किञ्चित् देशकालमुद्रणमिव भवति, स्टाम्प् इव.
सत्यं सत्यम्, इत्युक्ते तत्र यदा चैत्रः इति ज्ञानम् अस्ति, तत्र चैत्रः इति ज्ञानेन सह चैत्रः कुत्र कुत्र अपि च कदा तस्य दर्शनम् अभवत् इत्यपि विषयः ज्ञाने अस्ति, इत्युक्ते ज्ञाने तत्तु विशिष्टं चैत्रः तेन विशिष्टः खलु.
आं भगिनि, चैत्रविषये ज्ञानमस्ति, चैत्रविषयकं ज्ञानमस्ति, तद्ज्ञानं कथं विशिष्यते इत्युक्ते कार्तिकमासेन वा, अत्र विभक्तिप्रायः भिन्न अस्ति, न तृतीयविभक्त्यां मासा इति प्रायः आगच्छति, पाटलीपुत्रेण अपि विशिष्यते इति कृत्वा चैत्रः विशेष्यं भवति, अपि तु कार्तिक मासत्वं मासनिष्ठत्वम् अपि तु पाटलीपुत्रत्व पुत्रनिष्ठत्वं विशेषणौ इति.
सत्यं, तदर्थमेव तत्र पूर्वस्मिन् चित्रे अपि सः इति तद्देशकालविशिष्टः इति अस्ति खलु, तर्हि अस्मिन् उदाहरणे तद्देशकालः तद्देशकालम् इत्युक्ते तत्र पाटलीपुत्रम् इति देशः, कार्तिकमासः इति कालः, तर्हि तेन अथवा तत्र उभाभ्यां विशिष्टः अस्ति चैत्रः इदानीम्. अस्तु, तर्हि अग्रे लक्ष्मी भगिनी भवती पठति वा?
आं भगिनि, तेन च प्रत्यक्षात्मकेन ज्ञानेन पूर्वोक्तरीत्या संस्कारः उत्पद्यते, ततः अनुभवः नश्यति, कालान्तरेण प्रत्यक्षक्षेत्रे माघमासि पुनरपि विष्णुगुप्तस्य चैत्रेण सह चक्षुः सन्निकर्षः जातः. अस्तु, तेन च प्रत्यक्ष आत्मकेन ज्ञानेन पूर्वोक्तरीत्या संस्कारः उत्पद्यते, अत्र तेन च इति चित्रं चैत्रस्य विषयं भवति इति चिन्तयामि. तेन च इत्युक्ते कार्तिकमासी पाटलिपुत्रनिष्ठत्वं कार्तिकमासनिष्ठत्वं चैत्रः यः अस्ति चैत्रे यत् चैत्रे कार्तिकमासनिष्ठत्वं पाटलिपुत्रनिष्ठत्वं यत् अस्ति तेन प्रत्यक्ष आत्मकेन प्रत्यक्षं द्वारा तत् ज्ञानं कार्तिकमासि पाटलिपुत्रे चैत्रः इति तत् ज्ञानं इदानीं संस्कारेण पूर्वोक्तरीत्या संस्कारः उत्पद्यते. पूर्वोक्तरीत्या इत्युक्ते पूर्वोक्तरीत्या किं भवति संस्कारमात्र कथं संस्कारः जायते अनुभवेन प्रत्यक्षात् कथं संस्कारः जायते व्यापारेण जायते अनुभवः इति तत्र अहं किञ्चित्
तत्र प्रत्यक्षम् इति प्रथमं ज्ञानं भवति खलु. तर्हि तत्र प्रथमं तत्र अनुभवः इति तत्र क्षणद्वयं तिष्ठति तद् ज्ञानं वस्तुतः. इत्युक्ते प्रथमं प्रत्यक्षेन तत्र अनुभवः जायते, अनुभवेन संस्कारः भवति, तृतीयक्षणे अनुभवः नश्यति. तर्हि यदा प्रत्यक्षं भवति प्रत्यक्षज्ञानेन प्रत्यक्षमिति ज्ञानं तेन अनुभवः भवति. तर्हि अनुभवेन संस्कारः इति ज्ञानम् संस्कारः उत्पद्यते. संस्कारस्य अनन्तरं तृतीयक्षणम् अनुभवः नश्यति. अपि च भगिनि एवं कुर्मः, तत्र किञ्चित् प्रथमं पठतु तत्र सम्पूर्णः परिच्छेदः, परिच्छेदं पठतु, अनन्तरं तत्र कण्ठशः पश्येम. तर्हि तत्र सन्दर्भः कः इति
भगिनि तेन अत्र विष्णुगुप्तेन न भवति वा?
विष्णुगुप्तेन इति प्रायः न इति चिन्तयामि.
न तत्र भगिनि प्रत्यक्षात्मकेन ज्ञानेन इति अस्ति खलु, प्रत्यक्षेन इति तत्र तृतीयाविभक्ति प्रत्यक्षपदस्य तृतीयाविभक्तिः भवति तेन एव
ज्ञानस्य विषयः एव.
अस्तु
अस्तु. ततः अनुभवः नश्यति कालान्तरेण. अस्तु, पूर्वं परिच्छेदं पठिष्यामि. कालान्तरेण प्रयागक्षेत्रे माघमासी पुनरपि विष्णुगुप्तस्य चैत्रेण सह चक्षुः सन्निकर्षः जातः. तर्हि केवलेन सन्निकर्षेण कीदृशं प्रत्यक्षं भवेत्? चैत्रः माघवृत्तित्वान् प्रयागवृत्तित्वांश्च, परन्तु इह न केवलम् इन्द्रियमस्ति, तेन सह आत्मनि संस्कारोऽपि अस्ति. संस्कारे चैत्रे पाटलिपुत्रवृत्तित्वं कार्तिकमासवृत्तित्वं च विषयः. सम्प्रति सन्निकर्षः चैत्रे प्रयागमाघमासयोः प्रयागमाघमासयोः च वर्तते इति उभाभ्यां मिलिताभ्यां सः अयं चैत्रः इति प्रत्यक्षं भवति. सः इत्यंशः पाटलिपुत्रकार्तिकमासवृत्तिचैत्रं बोधयति. अयमिति अंशः प्रयागमाघमासवृत्तिचैत्रं बोधयति. इदम् अंशद्वयं चैत्रे अवगाहमानं ज्ञानं प्रत्यभिज्ञा इति शास्त्रे प्रसिद्धम्. अस्तु भगिनि, अस्तु अस्तु. यद् प्रथमं पाटलिपुत्रे कार्तिकमासे विष्णुगुप्तेन चैत्रः दृष्टवान् चैत्रं दृष्टवान् चैत्रे विशेषणद्वयमस्ति, पाटलिपुत्रे अपि च पाटलिपुत्रनिष्ठत्वम् अपि च कार्तिकमासनिष्ठत्वम्. इदानीं संस्कारः अनुभवः जायते, अनन्तरं संस्कारः जायते अपि च अनुग्रहः अपि तदनन्तरम् अनुग्रहः नश्यति अनन्तरं कालान्तरेण प्रयात् क्षेत्रे अन्यस्मिन् क्षेत्रे अन्यस्मिन् देशे माघमासे अन्यस्मिन् काले माघमासे पुनः विष्णुगुप्तः चैत्रं दृष्टि पश्यति इत्युक्ते चैत्रस्य विष्णुगुप्तस्य चक्षुः चैत्रेण सह सन्निकर्षः भवति इदानीं तर्हि केवलेन सन्निकर्षेण कीदृशं प्रत्यक्षं भवेत् पुनः यदा पुनः यदि विष्णुगुप्तस्य चक्रुः चैत्रेण सह सन्निकर्षं विष्णुगुप्तस्य चक्षुरिन्द्रियाणि चैत्रेण सह सन्निकर्षेण भवति तदानीम् इदानीं विशेषणं किम् अस्ति इत्युक्ते इदानीं चैत्रस्य विशेषणं माघवृत्तित्वान् माघनिष्ठत्वं माघनिष्ठित्वम् इति कालविशेषणं प्रयागनिष्ठत्वम् इति देशविशेषणमस्ति परन्तु
एकक्षणं भगिनी क्षम्यताम् अत्र तत्र चक्षुः सन्निकर्षः इत्युक्ते तत्र प्रत्यक्षज्ञानं भवति खलु इति किञ्चित् तत्र स्पष्टीकरणार्थमेव वेता भगिनी तु भवती तु सम्यक् एव उक्तवती तत्र यदा चक्षुसन्निकर्षः चैत्रेण सह विष्णुगुप्तस्य चक्षुसन्निकर्षः भवति तदा विष्णुगुप्ते तत्र प्रत्यक्षज्ञानं भवति खलु इदानीं चैत्रविषयकं प्रत्यक्षं ज्ञानं भवति विष्णुगुप्तस्य आत्मनि इति एकम् अपि च अत्र वृत्ति इत्युक्ते किम् इति किञ्चित् वदति वा तत्र माघवृत्तित्वं माघवृत्तित्ववान् इत्युक्ते वृत्ति इत्युक्ते किं
वृत्ति इत्युक्ते वर्तते वा वर्तते माघमासे यः माघमासे वर्तते सः माघवृत्तित्वम् इति अहं चिन्तयामि
हा वृत्ति इत्युक्ते तत्र आदेयः इति वयं पूर्वं दृष्टवन्तः तर्हि इत्युक्ते तत्र यथा तत्र पूर्वं पाटलिपुत्रे अपि च कार्तिकमासे इति उक्तवन्तः तद्वत् तत्र माघमासे अपि च प्रयागदेशे सः अस्ति इति अस्तु तर्हि अग्रे सरला भगिनी भवती किञ्चित् प्रतिपादयति वा
चैत्रे आधेयता अस्ति सा आधेयता देशवृत्तित्वं भवति पूर्वं पाटलीपुत्रवृत्तित्वं वा पाटलीपुत्रनिष्ठत्वं काले स्वीकृत्य कार्तिकमास निष्ठत्वं कार्तिकमास वृत्तित्वम् आसीत् इदानीं यदा तस्य सन्निकर्ष कालान्तरे प्रयागक्षेत्रे माघमासे भवत् तदानीं चैत्रे भवति प्रयागवृत्तित्वम् अथवा काल अस्ति माघवृत्तित्वं तत् चैत्रस्य भवति माघवृत्तित्वान् वा प्रयागवृत्तित्वान् अधो गत्वा मतु प्रत्यय यदि वयं योजयामः
साधु बहु सम्यक् अग्रे पठति वा परन्तु इह
परन्तु इह न केवलं इन्द्रियम् अस्ति तेन सह आत्मनि संस्कारो अपि अस्ति यदि वयं उक्तवन्तः माघवृत्तित्वान् प्रयागवृत्तित्वान् इदानीम् एतत् इन्द्रियसन्निकर्ष प्रत्यक्षं ज्ञानम् अस्ति. सो एतत् ज्ञानं न केवलम् इन्द्रिये अस्ति, किन्तु अपि तस्य आत्मनि संस्कार अपि आगच्छति. संस्कार किं कः विधः संस्कारः अस्ति? संस्कार
एकक्षणं भगिनि, एकक्षणं, क्षम्यतां. तत्र यत् प्रत्यक्षज्ञानम् अस्ति इदानीं, तत् संस्कारविषये इत्युक्ते तत्र प्रत्यक्षज्ञानं तु प्रत्यक्षज्ञानमेव, तस्य प्रत्यक्षज्ञानं तु इदानीं चैत्रस्य मार्गवृत्तित्वम् अपि च तत्र मार्गवृत्तित्ववान् अपि च प्रयागवृत्तित्ववान् इति अस्ति. परन्तु चैत्रः तु पूर्वं दृष्टः खलु विष्णुगुप्तेन इति कृत्वा इत्युक्ते तत्र प्रत्यक्षज्ञानं तत्र संस्कार प्रत्यक्षज्ञानस्य साक्षात् संस्कारेण सम्बन्धः नास्ति, तत्र किञ्चित् भेदः एव.
इदानीं तेन सह आत्मनि संस्कारो अपि अस्ति. सो इदानीं विष्णुगुप्तस्य मनसि संस्कारः अपि
अत्र तेन सह इत्युक्ते केन सह?
प्रत्यक्षज्ञानेन सह.
इत्युक्ते तत्र केवलं इन्द्रियेण जायमानं प्रत्यक्षज्ञानम् एव नास्ति, तेन सह तत्र संस्कारः अपि तस्य आत्मनि अस्ति इति
आगच्छति. संस्कारे चैत्रे पाटलीपुत्रवृत्तित्वं कार्तिकमासवृत्तित्वं च विषयः. संस्कार कीदृशसंस्कारसि? संस्कारवश चैत्र पाटलीपुत्रवृत्तित्वान् कार्तिकमासवृत्तित्वान् आसीत्. सम्प्रति सङ्कर्षः चैत्रे प्रयागमाघमासयोः च वर्तते इति उभाभ्यां मिलिताभ्यां सह अयं चैत्र इति प्रत्यक्षं भवति. इदानीं संस्कार अपि प्रत्यक्षं द्वे मिलित्वा तस्य मनसि कीदृशज्ञानम् आगच्छति, तस्य ज्ञानस्य नाम अस्ति प्रतिज्ञा. तस् अस्ति संकृष्य चैत्रे प्रयागमाघमासयो. इदानीं प्रयागमाघमासयो प्रत्यक्षम् अस्ति. संस्कार आसीत् पाटलीपुत्र च कार्तिकमास संस्कार वृत्तित्वं पूर्वस्य द्वे मिलित्वा तस्य मनसि प्रत्यक्षम् आगच्छति. इदानीं सञ्चं पाटलीपुत्र कार्तिकमास वृत्ति चैत्र बोधयति. संस्कार विष्णुगुप्तस्य मनसि पाटलीपुत्रं यः दृष्टवान् कार्तिकमासे तस्य वृत्तित्वं बोधयति इदानीम् अयम् इति अयञ्चः प्रयागमाघमासवृत्ति चैत्रं बोधयति. सः पद दीवं उक्तवन्तः तस्य संस्कार प्रति सङ्केतम् अस्ति पाटलीपुत्र कार्तिकमास वृत्ति चैत्रं बोधयति सः पद. अयं पद द्वितीयपदं सः अयं चैत्र तस्य अयं पद प्रयागमासवृत्ति चैत्रं बोधयति. कीदृशपदम् अयम् अस्ति? प्रयागमाघमासवृत्तित्वं यस्मिन् चैत्रे अस्ति तस्य सः अयं चैत्र इदानीम् इदम् अंशद्वयं चैत्रे अवगाहमानं ज्ञानं प्रतिभिज्ञा इति शास्त्रे प्रसिद्धम्. सो द्वे अंशे चैत्रे अस्ति संस्कार अपि प्रत्यक्षं ज्ञानं द्वे मिलित्वा प्रत्यभिज्ञा इति ज्ञानस्य एकं प्रकारः अस्ति.
अति उत्तमं भगिनि. तत्र पुष्पा भगिनी, भवती तत्र अन्तिमभागं पुनः एकवारं पठित्वा प्रतिपादयति वा? इत्युक्ते तत्र सम्प्रति इति आरभ्य इत्यस्मात्
सम्प्रति सन्निकर्षः चैत्रे प्रयागमाघमासयोः च वर्तते इति उभाभ्यां मृताभ्यां सह अयं चैत्रः इति प्रत्यक्षं भवति. सन्निकर्षः तु व्यापारः इति तत्तु इन्द्रियेण सन्निकर्षः न भगिनि. चैत्रे प्रयागमाघमासयोः तत् प्रयाग तत् नावगच्छामि. माघमासे चैत्रे अस्ति तत् सन्निकर्षः.
एकक्षणं, तत्र प्रयागः इति क्षेत्रं खलु, प्रयागक्षेत्रे माघमासे इदानीं चैत्रस्य दर्शनम् अभवत्. तर्हि सन्निकर्षः इत्युक्ते कीदृशज्ञानं भवति सन्निकर्षेण?
व्यापारज्ञानं.
सन्निकर्षः इति व्यापारः खलु, तत्र तत्र ज्ञानस्य तत्र कीदृशं ज्ञानं भवति?
चक्षुरेन्द्रिय.
कीदृशं ज्ञानम्? ज्ञानस्य भिन्नभिन्न इत्युक्ते तत्र एतावत् पर्यन्तं वयं स्मृतिः इति एकप्रकारकं ज्ञानम् इति दृष्टवन्तः, प्रत्यभिज्ञा इति एकप्रकारकम् इति, तद्वत् सन्निकर्षेण कीदृशं
ज्ञानं?
संस्कारः इति ज्ञानं नास्ति खलु, सन्निकर्षेण प्रत्यक्षज्ञानं भवति. तर्हि हा इति तत्र सन्निकर्षेण इदानीं प्रत्यक्षज्ञानम् अभवत्. तत्र उभाभ्यां मिलिताभ्यां सह अयं चैत्रः इत्युक्ते तत्र उभाभ्याम् इत्युक्ते तत्र
माघमासयोः चैत्रे तु अपि तु पाटलिपुत्रे अवलोकितः चैत्रे उभाभ्यां
इति तत्र तत्र तस्य प्रत्यक्षं भवति. अस्तु, अत्र तस्मिन् सः अयं चैत्रः इत्यस्मिन् सः इति भागः सः इति भागेन कस्य सूचना भवति?
पूर्वे दृष्टत्व भागः
इत्युक्ते तत्र संस्कारेण तज्जायते खलु,
संस्कारेण
हा इत्युक्ते तत्र पूर्वं पाटलिपुत्रे कार्तिकमासि यदा चैत्रस्य दर्शनम् अभवत् तत् तु संस्कारेण तत्र सः इति अंशः अयम् इति किं बोधयति?
प्रयागमाघमासयोः मासयोः चैत्रे अयं
सत्यं. तर्हि तत्र सः इत्यनेन पूर्वं दृष्टवन्तः, तर्हि तेन संस्कारेण संस्कारं सूचयति इति वयं दृष्टवन्तः. तत्र अयम् इत्यनेन अयम् इति केन जायते तत्र?
अयम् एतद्देशकालविशेषतः
सत्यम् इत्युक्ते प्रत्यक्षेन इत्युक्ते यदा अस्माकं पुरतः चैत्रः अस्ति तत्र अयम् इति भागः यः पुरतः तत्र यत् चित्रं संध्या भगिनी अपि पूर्वम् उक्तवती खलु, तत्र पश्यति चेत् अयम् इति भागः एतद्देशकालविशिष्टः इत्युक्ते इदानीम् अस्माकं पुरतः अस्ति, प्रत्यक्षेन तस्य ज्ञानम् अस्माकम् आत्मनि भवति. सः इति भागः पूर्वदेशकालविशिष्टः खलु, इत्युक्ते संस्कारेण तदस्माकम् आत्मनि इदानीं स्फुरति. तर्हि द्वयोः मेलनेन सः अयं चैत्रः इति यदा वदामः चेत् तत्र द्वयोः मेलनेन यः ज्ञानम् अस्माकम् आत्मनि उत्पद्यते तदेव प्रत्यभिज्ञा इति वदामः. स्पष्टं वा?
स्पष्टं.
अस्तु, तर्हि जयन्ती भगिनी भवती पठति वा अग्रे.
आं भगिनि. अस्य च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतम्, परन्तु तस्य संस्कारोऽपि जनकः इति केवल इन्द्रियजन्यप्रत्यक्षात् भूतलं घटवत् इत्याकारकात् भेदः. प्रकृतलक्ष्यभूता स्मृतिस्तु केवलेन संस्कारेण जायते इति तथोपि प्रत्यभिज्ञा विलक्षणा. ततश्च संस्कारजन्यत्वमात्रोक्तौ प्रत्यभिज्ञायाम् अतिव्याप्तिः, अतः तद्वारणाय मातृपदनिवेशः. प्रत्यभिज्ञायाम् प्रत्यभिज्ञायाम् इन्द्रियजन्यत्वस्यापि सत्त्वात् न अतिव्याप्तिः. अस्तु, अत्र इदानीमेव दृश्यं प्रत्यभिज्ञायां कथं प्रत्यक्षज्ञानम् अपि तु संस्कारेण संस्कारस्य भागः भवति. अस्य इत्युक्ते अत्र प्रत्यभिज्ञायाः विषयः. तस्य ज्ञानस्य इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतं. प्रत्यभिज्ञायाम् इन्द्रियेण ज्ञानं जन्यम् अस्ति इति सम्मतम् अस्ति, परन्तु तस्य संस्कारोऽपि जनकः इति केवल इन्द्रियजन्यप्रत्यक्षात् भूतलं घटवत् इत्याकारकात् भेदः. अस्तु, भूतलं घटवत् इति ज्ञानं, तस्मिन् ज्ञानं प्रत्यक्षज्ञानं भवति इति कृत्वा तादृशं ज्ञानं प्रत्यभिज्ञायाः भिद्यते. किमर्थम् इत्युक्ते प्रत्यभिज्ञायां न केवलं प्रत्यक्षज्ञानम् अपि तु स्मृतिः अपि अस्ति या संस्कारेण जायते. द्वयोः मेलनेन एव प्रत्यभिज्ञा जायते, परन्तु भूतलं घटवत्.
भगिनी क्षम्यताम्, अत्र प्रायः स्मृतिः इति न वक्तव्यं खलु, इत्युक्ते स्मृतिः इति भिन्नप्रकारकं ज्ञानं, वस्तुतः अत्र संस्कारस्य एव
संस्कारेण जायते ज्ञानम् इत्येव.
हा, संस्कारेण अपि च प्रत्यक्षेण इति. हा,
अस्तु अस्तु. भूतलं घटवत् इत्यस्मिन् ज्ञाने प्रत्यक्षज्ञानम् एव भवति. तत्र तथैव भूतलं घटवत् इति ज्ञानं भिद्यते. अत्र भूतलं घटवत् इत्यस्मिन् ज्ञाने केवलं प्रत्यक्षज्ञानम् एव कार्यं करोति. प्रत्यक्षज्ञानात् एव इन्द्रियसन्निकर्षेण जायमानं ज्ञानं भूतलं घटवत् इति ज्ञानं. प्रकृतलक्ष्यभूता स्मृतिः तु केवलेन संस्कारेण जायते इति ततोपि प्रत्यभिज्ञा विलक्षणा. परन्तु अस्माकं लक्षणवाक्यमस्ति स्मृतिलक्षणवाक्यमस्ति संस्कारेण संस्कारमात्रं जन्यं ज्ञानं स्मृतिः इति. अतः स्पष्टमस्ति यत् स्मृतिः तु केवलं संस्कारेण एव जायते, न तु इन्द्रियेण इति. अतः ततः जायते इति ततोपि इत्युक्ते स्मृतितः स्मृत्याः प्रत्यभिज्ञा विलक्षणा अस्ति इति. यतोहि स्मृतिः संस्कारेण एव जायते, परन्तु इदानीमेव दृष्टं यत् प्रत्यभिज्ञायां प्रत्यभिज्ञा संस्कारेण न तु संस्कारेण इन्द्रियेण अपि जायते इति कृत्वा तयोः भेदः अस्ति. ततश्च संस्कारजन्यत्वमात्रोक्तौ प्रत्यभिज्ञायाम् अतिव्याप्तिः. अतः एव प्रत्यभिज्ञायाम् अतिव्याप्तिः वर्तते, यतोहि तत्र इन्द्रियेण जन्यं ज्ञानम् अपि अस्ति.
अत्र संस्कारजन्यमात्रोक्तौ इति अस्ति खलु, इत्युक्ते किम्?
संस्कारजन्यत्वमात्रोक्तौ संस्कारजन्यत्वमात्रोक्तौ अत्र मातृपदेन एव अतिव्याप्तिः निवार्यते खलु.
हा हा तदर्थमेव. हा तत्र वस्तुतः लक्षणवाक्ये यद् मातृपदमस्ति तेन सह अत्र सम्बन्धः नास्ति खलु, यतोहि अत्र ततश्च संस्कारजन्यत्वमात्र उक्तौ इत्युक्ते तत्र केवलं संस्कारजन्यत्वम् अपि वदामः चेत् अत्र मात्र इत्यनेन केवलम् इति एव अर्थः.
दलमेव स्वीकुर्मश्चेत् इत्युक्ते संस्कारजन्यत्वम् एव स्वीकुर्मश्चेत् कटविज्ञायाम् अतिव्याप्तिः भवति.
सत्यम् इत्युक्ते संस्कारजन्यत्वं संस्कारभिन्न अजन्यत्वम् इति दलद्वयमस्ति. तत्र द्वितीयं दलं त्यजामः चेत् तत्र प्रतिविज्ञायाम् अतिव्याप्तिः भवति इति.
भगिनि भगिनी अत्र संस्कारजन्यत्वं ज्ञानं द्वयेन दलेन प्रतिज्ञायाम् अतिव्याप्तिः, केवलं संस्कारजन्यत्वं तत्र संस्कारध्वंसे एव अतिव्याप्तिः भवति.
हा हा सत्यं महोदय. तत्र
दलद्वयम् अत्र अस्ति.
हा 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 इत्युक्ते ज्ञानं, हा सत्यं यद् भवान् उक्तवान् तत्र प्रतिभिज्ञापि ज्ञानम् अस्ति, स्मृतिः अपि ज्ञानम् इति कृत्वा तत्र प्रतिभिज्ञा अपि च स्मृतेः तत्र स्मृतिः तत्र द्वयोः मध्ये तोलनं भवति चेत् तत्र ज्ञानमिति द्वयमपि ज्ञानमस्ति, परन्तु संस्कारजन्यत्वम् इति एव स्वीकुर्मः चेत् तत्र प्रतिभिज्ञा अपि संस्कारेण जायमानं ज्ञानं, स्मृतिः अपि तथा इति कृत्वा तत्र प्रतिभिज्ञायाम् अतिव्याप्तिः आगच्छति इति एव तत्र आशयः.
दलद्वयमत्र
वर्तते. सत्यं तत्र केवलं तत्र संस्कारभिन्न अजन्यत्वम् इति दलं त्यक्तं वस्तुतः.
अतः तद्वारणाय मातृपदनिवेशः, अतः एव प्रतिविज्ञायां या अतिव्याप्तिः भवति तद् निवारणाय केवलं संस्कारेण एव जायते स्मृतिः इति स्पष्टीकरणार्थं मातृपदस्य निवेशः भवति. प्रत्यभिज्ञायाम् इन्द्रियजन्यत्वस्यापि सत्त्वात् न अतिव्याप्तिः. मातृपदनिवेशेन न अतिव्याप्तिः भवति, किमर्थम् इत्युक्ते प्रतिभिज्ञायाम् इन्द्रियजन्यत्वम् अपि अस्ति इति कृत्वा अतिव्याप्त्याः निवारणं भवति.
यतोहि स्मृतिः केवलं संस्कारेण जायमानं, परन्तु प्रत्यभिज्ञा तथा नास्ति इति कृत्वा. सम्यक्. राजेन्द्रमहोदय, भवान् एकवारं पुनः एतत् परिच्छेदं पठित्वा पुनः एकवारं वदति वा?
प्रयत्नं करोमि भगिनि. अस्य च तत् परिच्छेदं वा भगिनि?
सत्यम्.
अस्य च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतम्, परन्तु तस्य संस्कारो अपि जनकः इति केवलेन्द्रियजन्यप्रत्यक्षात् प्रत्यक्षात् भूतलं घटवत् इति आकारात् भेदः. प्रकृतिलक्ष्यभूता स्मृति अस्तु केवलेन संस्कारेण जायते इति ततोपि प्रतिविज्ञा विलक्षणः. ततश्च संस्कारजन्य त्वं मात्र उक्तौ प्रति अभिज्ञायाम् अतिव्याप्तिः, अतः तद्वारणाय मातृपदनिवेशः. प्रति अभिज्ञायाम् इन्द्रियजन्यत्वस्य अपि सत्त्वात् न अतिव्याप्तिः. अस्ति च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतम्. अस्ति च इत्युक्ते प्रतिभिज्ञा भगिनि. अस्य च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतं. तत् शास्त्रे जनाः सम्मतं सन्ति यत्र प्रत्यक्षत्वं तु इन्द्रियजन्यत्वात् इन्द्रियेण जनयति परन्तु तस्य संस्कारो अपि जनक
तत्र तत्र प्रत्यक्षम् इन्द्रियेण जायते इति सत्यम्. अत्र किम् अस्ति इत्युक्ते प्रत्यभिज्ञा इति ज्ञानं, प्रत्यभिज्ञायां प्रत्यक्षत्वम् अस्ति इति इत्युक्ते यतोहि इन्द्रियेण तत्र पूर्वम् अस्माभिः दृष्टं खलु तत्र भागद्वयम् अस्ति सः अपि च अयम् इति. अयम् इति भागः प्रत्यक्षेण जायते इति कृत्वा तत्र प्रत्यभिज्ञायां प्रत्यक्षत्वम् अपि अस्ति इत्युक्ते एकः भागः तत्र प्रत्यक्षेण जायमानः इति तत्र अङ्गीकारः अस्ति तस्य विषयस्य इति.
अस्तु भगिनि. आम्, परन्तु तस्य संस्कारो अपि जनकः इति केवल इन्द्रियजन्यप्रत्यक्षात् भूतलं घटवत् इति आकारात् भेदः. परन्तु यथा प्रत्यभिज्ञा अस्ति तत्र संस्कारः अपि संस्कारः अपि जनकः अस्ति. केवल इन्द्रियजन्यप्रत्यक्षात् यथा वदामः तत्र भूतलं घटवत् यत् यत् आकारः जायते ततः भेदः अस्ति प्रत्यभिज्ञायाम्. तत् केवल इन्द्रियजन्यत्वं नास्ति, परन्तु तत् संस्कारः तस्मिन् संस्कारः अपि जनकः, तस्य संस्कारः अपि जनकः अस्ति. प्रत्यक्षम् अपि प्रत्यक्षत्वम् अपि जन्यत्वात् ततः भूतलं घटवत् ततः किञ्चित् भेदः अस्ति. भेदः आकारभेदः अस्ति. यथा तु भूतलं घटवत् तु केवल प्रत्यक्षेण एव जायते, इन्द्रियेण एव जायते. परन्तु यथा प्रत्यभिज्ञा अस्ति तत्र तु इन्द्रियेण प्रत्यक्षत्वम् अस्ति, परन्तु संस्कारः अपि तस्य जनकः अस्ति. तत्कारणात् तत् भूतलं घटवत्तः भेदः अस्ति. प्रकृतिलक्ष्यभूता स्मृतिवस्तु केवलेन संस्कारेण जायते इति ततोपि प्रत्यभिज्ञा विलक्षणाः. प्रकृति यथा अस्माकं लक्षणवाक्यम् आसीत् संस्कारजन्यं संस्कारमात्रजन्य ज्ञानं स्मृति, तत्र केवलं संस्कारेण एव जायते. संस्कारभिन्न इन्द्रियेण न जायते तदपि प्रत्यभिज्ञातः विलक्षणः अस्ति. विलक्षणः अस्ति यद्यपि यथा प्रत्यभिज्ञा इन्द्रियेण जन्यते प्रत्यक्षत्वम् अस्ति, अपि च संस्कारेण अपि जन्यत्वम् अस्ति. परन्तु स्मृतिस्थले तु संस्कारेण संस्कारमात्र संस्कारेण एव जायते, संस्कारभिन्न इन्द्रियेण न जायते. तथा तत् किञ्चित् भिन्नविलक्षणः अस्ति तत्र. ततश्च सम्यक् अस्ति वा भगिनि?
हा, बहु सम्यक् अस्ति महोदय.
ततश्च संस्कारजन्यत्वं मात्र उक्तौ प्रत्यभिज्ञायाम् अतिव्याप्तिः. ततश्च संस्कारजन्य मात्र उक्ता संस्कारजन्य केवल संस्कारजन्य जन्यः एव यथा वदामः तत्र तु प्रत्यभिज्ञायाम् अति तत् किञ्चित् न स्पष्टि नास्ति मम मनसि भगिनि.
इत्युक्ते इदानीं भवान् एव उक्तवान् खलु तत्र स्मृतिः इत्यस्मिन् स्मृतिः अपि च प्रत्यभिज्ञा द्वयोः तत्र भेदः कः इत्युक्ते स्मृतिः इति संस्कारमात्र इत्युक्ते संस्कारेण एव केवलं संस्कारेण जायते स्मृतिः. प्रत्यभिज्ञा इत्यस्मिन् तु तत्र संस्कारेण अपि जायते, अपि च तत्र प्रत्यक्षेण अपि जायते इति तत्र इन्द्रियेण अपि जायते इति तत्र भेदः आसीत् खलु तत्र स्मृतिः अपि च प्रतिभिज्ञायाः मध्ये. तर्हि इदानीं केवलं संस्कारजन्यत्वम् इति स्वीकुर्मः चेत् तत्र संस्कारेण जायते इति संस्कारेण जायमानं ज्ञानम् इति स्वीकुर्मः चेत् स्मृतिः अपि तथा प्रत्यभिज्ञा अपि तथा खलु. प्रत्यभिज्ञा अपि संस्कारेण जायमानं ज्ञानं, स्मृतिः अपि संस्कारेण जायमानं ज्ञानं इति कृत्वा तत्र संस्कारेण जायमानं संस्कारजन्यं ज्ञानं स्मृतिः इति वदामः चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति.
अस्तु 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 आम् आं भगिनि. अतः तद् वारणाय मातृपदनिवेशः यथा तत्कारणात् तत्र संस्कारमात्रजन्यत्वं वदामः यत् कारणात् तत्र अतिव्याप्ति निवारणाय यथा यथा प्रत्यभिज्ञा अपि संस्कारेण अपि च प्रत्यक्षेण जायते यथा स्मृति लक्षणवाक्ये संस्कारमात्र जन्युतं जन्यज्ञानं स्मृति तत् वदामः मातृपदनिवेशेन तत् प्रत्यभिज्ञायां यत् यः अतिव्याप्तिः आसीत् तत् सा अतिव्याप्ति तत् निवारणं भवति तस्य. एवं भगिनि
सत्यम् अस्तु. तर्हि
अतः तद्वारणाय मात्रपदनिवेशः इति पुनः ते स्मृतेः लक्षणस्य विषये एव वदन्तः सन्ति.
सत्यं सत्यम् यतोहि अस्माकं प्रसङ्गः तु तत्र स्मृतेः विषये एव अस्ति खलु. इत्युक्ते प्रतिभिज्ञायाः निरूपणमपि तत्र स्मृतेः लक्षणस्य
तदर्थमेव अस्ति इति. अस्तु अस्तु भगिनि
अस्तु. तर्हि अग्रे विद्याशङ्करमहोदय भवान् पठति वा.
अस्तु भगिनि. इहापि पूर्वदर्शितरीत्या मात्रपदेन इन्द्रियमेव निवार्यम्. संस्कारभिन्नानाम् आत्ममनसंयोगादिकारणानां ज्ञानमात्रं प्रति आवश्यकत्वेन निवारयितुम् अशक्यत्वात् तथा च संस्कारजन्यत्वं संस्कारेतर अजन्यत्वं ज्ञानत्वम् इति त्रीणि दलानि लभ्यन्ते. अतः अत्रापि रूपलक्षणवदेव एकस्य दलस्य द्वयोः दलयोः वा लक्षणत्वे दोषान् ज्ञात्वा त्रयाणामपि दलानाम् आवश्यकत्वं विदां कुर्वन्तु. इह अपि पूर्वदर्शितरीत्या मात्रपदेन इन्द्रियमेव निवार्यम्. इदानीं घट चक्षुविषये चक्षुर्मात्रग्राह्यं रूपम् इति रूपस्य लक्षणमासीत्. तत्र मात्रपदेन कस्य निवारणं भवत् घटभिन्न क्षम्यतां चक्षुर्भिन्न इन्द्रियस्य निवारणार्थं मात्रपदं उक्तं. तत्र घटविषये चक्षुषा सङ्ख्या अपि गृह्यते इति तस्य अतिव्याप्तिनिवारणार्थं मात्रपदम् उपयुक्तम्. अत्र मात्रपदस्य इन्द्रियमेव निवार्यम् इत्युक्ते संस्कारमात्रजन्यत्वं स्मृतेः लक्षणम् इति वदनेन इन्द्रियस्य निवारणं भवति. यतोहि प्रत्यभिज्ञायाम् अतिव्याप्तिः किमर्थम् इत्युक्ते प्रत्यभिज्ञायां इन्द्रियमेव प्रत्यभिज्ञा प्रति इन्द्रियमपि कारणं संस्कारमपि कारणं. संस्कारभिन्नानाम् आत्ममनसंयोगादिकारणानां ज्ञानमात्रं प्रति आवश्यकत्वेन निवारयितुम् अशक्यत्वात् अत्र ज्ञानं प्रति संस्कारभिन्नानाम् इत्युक्ते यत्र मात्रपदं वदामः तत्र अमुकमात्र इति वदनेन अमुकभिन्न अभावः कस्यापि अभावः अस्ति इति विवक्षा. अत्र संस्कारभिन्नकारणानां ज्ञानं प्रति अनेकानि सन्ति. इत्युक्ते संस्कारभिन्नानां कारणानाम् आत्मा आत्मनसंयोगः इत्यादि कारणानामपि सर्वेषु ज्ञानेषु प्रति कारणमस्ति. तथा ते तानि कारणानि निवारयितुम् अशक्यते. सर्वेषु ज्ञानं प्रति आत्मा आवश्यकः आत्मनसंयोगादि संयोगः आवश्यकः इति आवश्यकत्वात् तानि कारणानि निवारयितुं न शक्यते. तस्मात् इन्द्रियमेव निवार्यम् इति आपतति. तथा च संस्कारजन्यत्वम् इति एकदलं संस्कारेतर अजन्यत्वम् इत्युक्ते संस्कारभिन्न अजन्यत्वं तृतीयं ज्ञानत्वम् इति त्रीणि दलानि लभ्यन्ते. अतः अत्रापि रूपलक्षणवदेव एकस्य दलस्य द्वयोः दलयोः वा लक्षणत्वे यथा रूपस्य विषये दलत्रयं किमपि चक्षुषाजन्यं चक्षुर्भिन्न अजन्यम् अपि च गुणत्वम् इति रूपस्य लक्षणम् इति रूपे अस्ति. तथा एव अत्र यथा पूर्वं दलत्रयं दल एकं वा दलद्वयं वा स्वीकृत्य दलचातक्यस्य विषये यथा विस्तारेण चर्चितं तथा एव अत्र अपि रूपलक्षणवद् एव एकस्य दलस्य वा द्वयोः दलयोः वा स्वीकृत्य लक्षणस्य किं किं दोषम् इति ज्ञात्वा त्रयाणामपि दलानां सार्थक्यं त्रयाणां त्रीणि दलानि अपि भवेत् इति आवश्यकः इति विदाङ्कुर्वन्तु इति न जानामि. अङ्कुर्वन्तु इत्युक्ते स्वीकुर्वन्ति वा
इत्युक्ते स्पष्टीकुर्वन्तु इत्येव, इत्युक्ते तेन स्पष्टीकरणं भवति इति.
तावदेव भगिनि, अन्य किमपि अस्ति वा?
हा 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 न महोदय, तावदेव. बहु सम्यक्. अस्तु तर्हि एतावत्पर्यन्तं प्रश्नाः सन्ति वा?
भगिनि अत्र यद्वाक्यद्वयमस्ति अस्मिन् परिच्छेदे पूर्वं आदौ तत्र सम्यक् मया अवगतं वा इति न जानामि, तत् किञ्चित् पुनः वदामि वा तत्र दोषाः सन्ति चेत्?
हा हा वदतु भगिनि.
तत्र यथा विद्याशङ्करमहोदयेन उक्तम् इहापि पूर्वदर्शितरीत्या मात्रपदेन इन्द्रियमेव निवार्यम् इत्युक्ते तत्र मात्र इति यदा स्थापयामः स्मृतिलक्षणे तत्र इन्द्रियं तत्र इन्द्रियस्य बहिष्करणं भवति इति तत्र अर्थः अस्ति तस्य वाक्यस्य. संस्कारभिन्नानाम् आत्म आत्मनःसंयोगादिकारणानां ज्ञानमात्रं प्रति आवश्यकत्वेन निवारयितुम् अशक्यत्वात् इत्युक्ते तत्र यानि अन्यानि कारणानि सन्ति यथा महोदयेन उक्तं तस्य निवारणं कर्तुं न शक्नुमः. उदाहरणार्थं तत्र आत्मा अपि च आत्मा इति कारणम् आत्ममनस्संयोगः इति अन्यं कारणम् इति तानि सर्वाणि कारणानि तु आवश्यकानि एव. तानि न सन्ति चेत् तत्र ज्ञानम् इति न भवति इति कृत्वा तद् निवारयितुं न शक्नुमः, अतः इन्द्रियमेव निवार्यम्. संस्कारभिन्नानाम् इति पदस्य कः तत्र विशेषः?
यथा तत्र आत्ममनसंयोगादिकारणानाम् इति अस्ति खलु, इत्युक्ते संस्कारः इति एकं कारणम् अस्ति स्मृतेः कृते, तद्विहाय तत्र अन्यानि कारणानि अपि भवेत् भवेयुः, परन्तु तत्सर्वं वयं निवारयितुं न शक्नुमः. इत्युक्ते ज्ञानं प्रति आत्ममनसंयोगः इति एकं कारणं, आत्मा अपि एकं कारणं, तत्सर्वम् आवश्यकमेव इति कृत्वा तेषां निवारणं तु कर्तुं न शक्नुमः इति कृत्वा यदा संस्कारमात्र इति पदेन यत् संस्कारभिन्न अजन्यत्वम् इति आगच्छति तत् संस्कारभिन्नं तु तत्र इन्द्रियं प्रति एव इत्येव.
अस्तु, ततः अग्रे तु सम्यक् यद् लिखितमस्ति तत्र दलत्रयम् आवश्यकम् इत्येव अस्ति तत्र. अस्तु भगिनि, धन्यवादः.
उत्तमं, तर्हि अन्य प्रश्नाः न सन्ति चेत् अद्य अत्र स्थगयितुं शक्नुमः. अस्तु तर्हि,
धन्यवादः.
धन्यवादः.